अस्य श्रीमद्भगवद्गीतामाला महामन्त्रस्य भगवान् वेदव्यास ऋषिः अनुष्टुप् छन्दः श्रीकृष्णः परमात्मा देवता अचोच्यानन्वशोचस्त्वम् प्रज्ञावादांश्च भाषसे इति बीजम् सर्वधर्मान् परित्यज्य मामेकम् शरणम् व्रज इति शक्तिः अहम् त्वा सर्वपापेभ्यो मोक्षयिष्यामि मासु च इति कीलकम् श्रीकृष्णप्रसादसिद्ध्यर्थे भगवद्गीतापारायणे विनियोगः अथ करण्यासः नैनम् छिन्दन्ति शस्त्राणि नैनम् दहति पावकजित्यङ्गुष्टाभ्याम् नमः न चैनम् क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्याम् नमः अच्छेद्योयमदाह्योयमक्लेद्यो शोष्य एव च इति मध्यमाभ्याम् नमः नित्यः सर्वगतस्थानुरचलोऽयम् सनातन इत्यनामिकाभ्याम् नमः पश्य मे पार्थरूपाणि शतशोथसहस्रश इति कनिष्ठिकाभ्याम् नमः नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति करतलकरपृष्ठाभ्याम् नमः अथ हृदयादिन्यासः नैनम् छिन्दन्ति शस्त्राणि नैनम् दहति पावक इति हृदयाय नमः न चैनम् क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा अच्छेद्योयमदाह्योयमक्लेद्यो शोष्य एव च इति शिखायैव षट् नित्यः सर्वगतस्थानुरचलोऽयम् सनातन इति कवचायहुम् पश्य मे पार्थरूपाणि शतशोथसहस्रश इति नेत्रत्रयाय वौषट् नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति अस्त्राय पठ् भूर्भुवः सुवरोमिति दिग्बन्धः ध्यानम्